सप्रत्येकमयूरस्थैः वल्लीसेनापतिं प्रभुं गुरुं दक्षिण अभिमुखं भोगमोक्षप्रदायकम्. मै सिन्सियर् बेनेडिक्षन् टु द सौत् फेसिङ्ग् गुरुस्वरूप सुब्रह्मण्यस्वामी, हू इस् केपबल् आफ् बेस्टोयिङ्ग् बोत् भोग फार् द ट्रान्साक्षनल् व्यावहारिक वर्ल्ड् एण्ड् मोक्ष द ज्ञानम् अबौट् द पारमार्थिक आर् द रियल् अल्टिमेट् ट्रूत्, हू मेनिफेस्ट्स् इन् द तिन्नियक्षेत्रम् एस् षण्मुख अलाङ्ग् वित् हिस् कान्सर्ट्स् वल्ली एण्ड् देवसेना इन् सेपरेट् इण्डिविजुवल् वाहनास् फार् ईच् आफ् देम् स प्रत्येकमयूरस्थैः. This almost suggests that eventually Jnana Marga is the only path to salvation, and therefore at some point of time in the progress we will have to leave behind the Ichha and Kriya, the entire Karmopasana gamut of activities, and pursue Jnana alone for Moksha. The individual, the separate vahanas of peacocks seem to be suggestive of this fact that while we may start all together, we'll have to eventually drop some of them to pursue the single unitary goal of Advaita.